श्रीगणेशरक्षास्तोत्रम् श्रीगणेशाय नमः। अस्य श्रीगणेशरक्षास्तोत्रमन्त्रस्य सीतारामः कविः श्रीगणपतिर्देवता अनुष्टुप् छन्दः ऋद्धिसिद्धिशक्ति श्रीमद्मुद्गलकीलकम् श्रीगजाननप्रीत्यर्थे जपे विनियोगः। अथ ध्यानम्। ध्यायेच्छ्रीवक्रतुण्डम् द्रुतवरदकरम् एकदन्तम् प्रसन्नम् रक्तम् वासो वसानम् नवकुवलयदलस्पर्दिनेत्रम् त्रिनेत्रम् शुण्डायुक्तम् गणेशम् सकलभयहरम् ऋद्धिसिद्धीशमाद्यम् भक्ताभीष्टप्रदम् श्री गजवदन विभुम् भुक्तिमुक्तिप्रदम् श्रीम्। चरितम् श्रीगणेशस्य बहुकोटिप्रविस्तरम् एकैकमक्षरम् यस्य विघ्नकोटिविनाशकम् श्रीब्रह्मणस्पतिम् ध्यात्वा गणेशम् शिवनन्दनम् लक्षलाभसुतोपेतम् श्रीशम् मूषकवाहनम् पाशमङ्कुशहस्तश्च ज्ञेयो विद्याधनप्रदः परशुश्च करे यस्य लीलया विश्वरक्षकः। गणेशरक्षामिमाम् प्राज्ञो भुक्तिमुक्तिप्रदाम् पठेत् शिरो मे सुमुखः पातु भालम् स्कन्दाग्रजो महान् काश्यपेयो दृशौ पातु दूर्वानन्दश्च मे श्रुति घ्राणम् पातु मखत्राता मुखम् मुद्गलवत्सलः जिह्वाम् महोत्कटः पातु कण्ठम् मे हरनन्दनः अङ्गारकश्च संस्कन्धौ मे भुजौ पातु विनायकः करौ पाराशरः पातु हृदयम् विजयस्थिरः मध्यम् पातु गुणेशस्तु नाभिम् गणपतिस्तथा असुरघ्नः कटी पातु सक्थिनी सिंहवाहना ऊरू चिन्तामणिः पातु राक्षसेन्द्रविनाशकृत् जानुनी सिन्धुसंवर्ता जङ्घे पातु सुराग्रजः पादौ गुहाग्रजः पातु श्रीशः पात्वखिलम् वपुः एताम् श्रीशबलोपेताम् रक्षाम् यश्रद्धया पठेत् सदीर्घायुः सुखी पुत्री स्वानन्देन युतो भवेत्। विश्वसञ्चारिणो ये स्युः चाराभूतगणास्तथा प्रेक्षितुम् अपि अशक्तास्ते रक्षितम् ब्रह्मनामभिः धन्येति स्वस्तिरूपेति भालचन्द्रेति वा स्मरन् नरो न बध्यते पापैर्मुक्तिम् मोदम् च विन्दति त्रैलोक्यप्रभुमन्त्रेण सिद्धनाम्नाभिरक्षितम् यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः। वज्रपञ्जरनामेदम् गणेशकवचम् पठेत् सातत्येन च सर्वत्र लभते स्वस्तिमङ्गलम् आदिष्टवान् यथा श्रीशो गणेशो हृदये प्रभुः तथा लिखितवान् भक्तः सीतारामो विनम्रधी निर्माता कल्पवृक्षाणाम् संवर्ता सकलापदाम् अभिरामस्त्रिलोकानाम् मयूरेशः सनातनः षडाननो गणेशश्च शिवपुत्रौ महाबलौ रक्षः कुलनिहन्तारौ त्रायेतान्नः शिवात्मजौ गम्बीजाक्षरयुक्तोऽयो बालचन्द्रः सदाशिवः लम्बोदरः शोकहारी कीर्तिदः पुत्रपौत्रदः काश्यपेयस्तुरानन्दः शुभोदित्याश्च नन्दनः महोत्कटो हतो येन देवान्तकनरान्तकौ गुणेशो हतवान् सिन्धुम् गणेशः सिन्धुरासुरम् जनकस्य च व्यासस्य गर्वस्तेन ऋतः पुरा तीक्ष्णसज्ज परशुशिवात्मजो अङ्कुशेन हरतु मे भवदुःखम् रक्षणाय सुखदो वरदाता गणपतिः पथि सदैव गच्छतु। चिन्तामणिर्मयूरेशो देवसिद्धिविनायकः विघ्नेश्वरो गणपतिर्गिरिजात्मज एव च बल्लाळेशो विजयते वरदश्रीविनायकः अष्टक्षेत्रेषु ये सन्ति पान्तु मेष्ट विनायकाः पूर्णः पाराशरशूरो मुद्गलानुचरो बलि योगेशः पुरुषः प्राज्ञः ज्ञानेशो ब्रह्मयस्त्वयम् कृते दशभुजो देवः शत्रुघ्नः सिंहवाहनः त्रेतायाम् षड्भुजो रम्य ईशो मयूरवाहनः द्वापारे मूषकारूढो गजाननश्चतुर्भुजः धूम्रवर्णः कलियुगे द्विभुजो हयवाहनः गणेशगीताम् तथा योग गीताम् यः श्रद्धया पठेत् षड्रिपूंस नियम्यान्ते योगसिद्धो भविष्यति योगेश्वरम् गणाध्यक्षम् कार्यारम्भे सुपूजितम् तुवन्ति ये सदा चित्ते न ते संसारिणो नरः पूर्णम् शङ्करनन्दनम् सुरनुतम् गौरीप्रियम् मोक्षदम् ब्रह्मण्यम् पणितप्रियम् पणिपतिम् सर्वप्रियम् तारकम् सर्वज्ञम् भूतभव्यम् भवभयशमनम् रक्तवर्णम् शुभाङ्गम् वन्दे सर्वाभिरामम् सकलगुणयुतम् रञ्जकम् योगराजम् नादाय जगदीशाय विद्याधीशाय साणवे गजाननाय जप्याय ढुण्डिराजाय ते नमः ओङ्काररूपहरनन्दन स्वाभिराम ओङ्काररूपसुरवन्दित स्वाभिराम ओङ्काररूपविकटोदर स्वाभिराम ओङ्काररूपशरणम् भव स्वाभिराम श्रीपार्वतीप्रियसुतम् मनसा स्मरामि श्रीपार्वतीप्रियसुतम् वचसा गृणामि श्रीपार्वतीप्रियसुतम् शिरसा नमामि श्रीपार्वतीप्रियसुतम् शरणम् प्रपद्ये माता श्रीशो मत्पिता भालचन्द्रः स्वामी श्रीशो मत्सखा भालचन्द्रः सर्वस्वम् मे भालचन्द्रो दयालुर्नान्यम् जाने नैव जाने न जाने सिद्धिस्तु दक्षिणे यस्य बुद्धिर्वामे स्थिता प्रिया पुरतो लक्षलाभौ च वन्दे तम् मूषकध्वजम् भक्ताभिरामम् गणनाथदेवम् व्यासस्तु तम् भुवनैकनाथम् प्रणवस्वरूपम् सुखदम् गणेशम् गजाननन्तम् शरणम् प्रपद्ये विधिर्जगन्निर्मिति कार्यमग्नो विष्णुश्च तत्पालन तत्परश्च संहारक शङ्कर एव तेषाम् आराध्य देवस्तमहम् नमामि पूजन्तम् गणनाथेति मधुरम् मधुरस्वरम् आरुह्य कविता शाखाम् वन्दे मुद्गलकोकिलम् आपदाम् परिहर्तारम् सर्वेप्सितफलप्रदम् भक्ताभिरामम् श्रीगणेशम् भूयो भूयो नमाम्यम् भर्जनम् कुविचाराणाम् अर्जनम् सुखसम्पदाम् तर्जनम् यमदूतानाम् गणेशेति च गर्जनम् पूर्णो ज्ञाननिधिः सदा विजयते पूर्णम् गणेशम् भजे पूर्णेनाभिहते राक्षसचमु पूर्णाय तस्मै नमः पूर्णान्नास्ति परायणम् परतरम् पूर्णस्य दासोऽस्म्यहम् पूर्णे चित्तलयः सदा भवतु मे भोः पूर्णमाम् उद्धर पूर्णपूर्णेति स्वस्तीति स्वानन्देति सुमङ्गलम् सहस्रनामान्यदेवानाम् तत्तुल्यम् मोक्षदायकम् इति श्रीगणेशसुतेन सीतारामशर्मणा श्रीरामरक्षास्तोत्रम् अनुसृत्य विरचितम् श्रीगणेशरक्षास्तोत्रम् सम्पूर्णम् श्रीगजाननार्पणमस्तु।